इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी अथ वार्ताः भारतीय अन्तरिक्ष अनुसन्धान संघटनम् अद्य रात्रौ श्रीहरिकोटातः उपग्रहद्वयं प्रक्षेपयिष्यति यत् हि कक्षायाम् अन्तरिक्षयानानां डॉकिंग अनडॉकिंग इति प्रक्रियां च प्रदर्शयिष्यतः येन भारतं विश्वस्य चतुर्थः देशः भविष्यति यो हि उपलब्धिं प्राप्तवान् इसरो इत्यस्य पीएसएलवी इति वार हॉर्स रॉकेट पोलर उपग्रह प्रक्षेपणयानं उपग्रहद्वयं एसडीएक्स 1 तथा एसडीएक्स 2 670 किलोमीटर परिमितस्य वर्तुलाकारे कक्षायां स्थापयिष्यति स्पेडएक्स अभियानं भारतस्य भविष्यस्य अन्तरिक्ष अन्वेषण प्रयासानां कृते आधारशिला भविष्यति इति अपेक्षास्ति यस्मिन् पृथिव्यां चन्द्रात् शिलाः मृत्तिका च प्राप्तुं प्रस्तावितं वर्तते भारतीय अन्तरिक्ष स्थानकं चन्द्रमसि अन्तरिक्षयात्रिणः अवरोहणं च अन्तर्भवति केवलं अमेरिका रूस चीनदेशाः एव अन्तरिक्ष डॉकिंग प्रौद्योगिक्यां निपुणतां प्राप्तवन्तः अभियानस्यास्य मुख्य उद्देश्यं डॉक इति कृत अन्तरिक्षयानेषु विद्युत शक्तिहस्तान्तरणस्य प्रदर्शनं भवति यत् अन्तरिक्षे रोबोटिक्स इत्यादीनां भविष्यस्य अनुप्रयोगानां कृते अत्यावश्यकम् अनडॉकिंग इत्यस्य अनन्तरं समग्रम् अन्तरिक्षयाननियन्त्रणं पेलोड इति सञ्चालनं च वित्तमन्त्री निर्मलासीतारामणः इत्येषा अद्य व्यापार उद्योग नेतृभिः सह आयव्यय संकल्पनात् पूर्वं परामर्शोपवेशनं करिष्यति उपवेशनावधौ भारतीय उद्योग जगतः सम्प्रति उच्चवृद्धेः समर्थनार्थं उपभोगं वर्धयितुम् उपायान् प्रस्तौति इति अपेक्षास्ति यत् सकलराष्ट्रिय उत्पादस्य बृहत्तमः घटकः अस्ति विदेशमन्त्री डॉ एस जयशंकरः अद्यारभ्य कतरदेशस्य त्रिदिवसीय आधिकारिकयात्रायां भविष्यति यात्रावधौ सः कतरदेशस्य प्रधानमन्त्रिणा विदेशमन्त्रिणा च शेख मोहम्मद बिन अब्दुल रहमान बिन जसीम अल थानी इत्यनेन सह मिलिष्यति विदेशमन्त्रालयेन विज्ञप्तौ उक्तं यत् अनया यात्रया द्वयोः पक्षयोः द्विपक्षीय सम्बन्धेषु विविधपक्षेषु च समीक्षा भवितुं शक्यते यत्र राजनीतिकव्यापारः निवेशः ऊर्जा सुरक्षा सांस्कृतिकः च क्षेत्रीयः अन्ताराष्ट्रियः च विविधाः पक्षाः सन्निहिताः सन्ति केन्द्रीयगृहमन्त्री अमितशाहः अद्य गुजरातराज्यस्य यात्रायां भविष्यति श्रीशाहः गुजरातस्य असुरायां श्रीधरमपुरतीर्थे श्रीमद्राजचन्द्राश्रमस्य वार्षिकसमारोहे भागं ग्रहीतुं राज्यस्य एकदिवसीययात्रायां भविष्यति यात्रावधौ सः राजसभागृहे महामस्तकाभिषेकसमारोहे भागं ग्रहीष्यति जॉर्जिया देशे आसप्ताहं यावत् विरोध प्रदर्शनानन्तरं पाश्चात्य समर्थकस्य पूर्ववर्ती पदं त्यक्तुम् अस्वीकरणानन्तरं पूर्वपादकन्दुक क्रीडकः मिखेल कैवेलश्विलिः ह्यः ट्विलिसी नगरे संसदि आयोजिते समारोहे जॉर्जिया देशस्य राष्ट्रपतिपदस्य शपथग्रहणं कृतवान् त्रिपञ्चाशत् वर्षीयः पूर्व राष्ट्रिय पाद कन्दुक क्रीडकः केवेलश्विली आंग्ल प्रीमियर लीग क्रीडायाम् अपि क्रीडितः आसीत् सः बाइबल ग्रन्थस्य जॉर्जिया संविधानस्य च शपथं स्वीकृतवान् प्रचलितस्य राजनीतिक संकटस्य मध्ये राष्ट्रस्य हितस्य